एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। केन्द्रीय सुरक्षा समितेः उपवेशेन पर्सा जनपदस्य वीरगंज नगरे प्रसृतायाः विसूचिकायाः नियन्त्रणाय प्रभावितानां जनानाम् उपचारस्य व्यवस्थायाश्च कृते चिकित्सकानां समूहं परिचालयितुं निर्णीतमस्ति। गृहमन्त्रिणः रमेश लेखकस्य अध्यक्षतायां पूर्वेद्युः उपवेशेन नेपाली सेना, नेपाल प्रहरी, सशस्त्र प्रहरी बलं च विसूचिकायाः नियन्त्रणस्य कृते समूहस्य परिचालनाय प्रबन्धनं विधातुं निर्दिष्टानि सन्तीति मन्त्रालयस्य प्रवक्ता आनन्द काफ्ले असूचयत्। गृह सचिवेन गोकर्णमणि दुवाडी इत्यनेन सहितानां सुरक्षा निकाय प्रमुखाणां सहभागितायां उपवेशे देशस्य शान्ति सुरक्षायाः समीक्षा च सम्भूता अस्ति। अत्रान्तरे स्वास्थ्य जनसंख्या मन्त्रिणः प्रदीप पौडेलस्य, पेयजल मन्त्रिणः प्रदीप यादवस्य च मध्ये वीरगंज नगरे प्रसृताया विसूचिकायाः संक्रमणस्य नियन्त्रणस्य विषये विमर्शः सम्भूतोऽस्ति। स्थानीय सर्वकारैः समन्वयं विधाय रोगिणां तत्कालम् उपचारस्य सर्वकारीय चिकित्सालयेषु, नैज चिकित्सालयेषु निःशुल्कं परीक्षणस्य च व्यवस्था विहिता अस्ति इति मन्त्री पौडेलः असूचयत्। वीरगंज महानगरपालिकायां समुदायेषु विसूचिकायाः संक्रमणे प्रसृते सति तस्य नियमनाय संक्रान्तानां जनानाम् उपचारस्य, स्वच्छतायाः, जनसंचेतनायाश्च कार्यक्रमेषु बलं दत्तमस्ति। नेपालस्य संविधानस्य घोषणायाः दशानां वर्षाणां प्राप्तेः अवसरे अस्मिन् वर्षे संविधान दिवसं राष्ट्रिय दिवसञ्च भव्यतया उत्सवरूपेण आयोजयितुं प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायां ह्य एतद् विक्रमवर्षीया संविधान दिवस राष्ट्रिय दिवस मूल समारोह समितिः संघटिता अस्ति। नेपाली जनतायाः बलिदानेन, संघर्षेण च जनतया निर्वाचितया संविधानसभया द्वासप्तत्युत्तर द्विसहस्रतम विक्रमवर्षस्य मासस्य तृतीये दिवसे संघीय लोकतान्त्रिक गणतन्त्रात्मक व्यवस्था सहितस्य प्राप्तस्य संविधानस्य प्रारम्भ दिवसः राष्ट्रिय दिवसत्वेन मन्यते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य उपविष्टेन मूल समारोह समितेः उपवेशेन आगामिनः आश्विन मासस्य द्वितीय, तृतीय, चतुर्थे च दिवसेष् विभिन्नै कार्यक्रमैः त्रिदिवसात्मकस्य उत्सवस्य समायोजनाय मूल समारोह समितिः संघटिता अस्ति। उपवेशं सम्बोधयन् प्रधानमन्त्री केपी शर्मा ओली संविधान घोषणायाः दशवर्षाणां प्राप्तेः अवसरे राष्ट्रियस्तरे, जनस्तरे च विशेषतया समारोहान् आयोजयितुं निर्दिष्टवान्। उपराष्ट्रपतेः रामसाहेब प्रसाद यादवस्य नेपालस्य भ्रमणे आगतायाः वियतनाम देशस्य उपराष्ट्रपतेः भो थियान सुआन इत्यस्याश्च मध्ये प्रतिनिधिमण्डलस्तरीया मेलवार्ता सम्भूता अस्ति। ह्यः सम्भूते मेलने अनयोर्मध्ये द्वयोः देशयोः सम्बन्ध मित्रता च सार्वभौमिकतायाः सम्माने आधृते स्तः इति विचर्च्य अन्तर्राष्ट्रिय मञ्चेष् समानधारणया सहैव अग्रे वर्धनस्य विषये विमृष्टमस्ति इति ज्ञापितं वर्तते। तदवसरे द्वयोः देशयोः मध्ये व्योमयानोड्डयन सम्बन्धस्य विस्तारस्य विषये विमृष्टमस्ति इति परराष्ट्र मन्त्रालयस्य सहसचिवः प्रकाशः अधिकारी असूचयत्। द्विपक्षीयस्य व्यापारस्य, निवेशनस्य, प्रविधेश्च विषयेष् जनस्तरस्य सम्बन्धस्य विषये च विमृष्टं वर्तते। अत्रान्तरे प्रधानमन्त्रिणः केपी शर्मा ओलिनः नेपालस्य भ्रमणाय समागतायाः वियतनाम देशस्य उपराष्ट्रपतेः भू इत्यस्याश्च मध्ये मेलवार्ता सम्भूता अस्ति। अधिकार दुरूपयोगानुसन्धानायोगेन पूर्व मुख्य सचिवाय डाक्टर वैकुण्ठ अर्यालाय उन्मुक्ति प्रदानस्य विषये न्यायालयस्य निर्णयस्य विरुद्धं सर्वोच्च न्यायालये पुनरावेदनं विहितमस्ति। सुरक्षण मुद्रण केन्द्रस्य माध्यमेन अन्त शुल्क चिटिकायाः मुद्रणस्य क्रमे संचार सूचना प्रविधि मन्त्रालयस्य तात्कालिकेन सचिवेन अर्यालेन सहितानां द्वादश जनानां विरुद्धे अधिकार दुरूपयोगानुसन्धानायोगेन पञ्जीकृतस्य आरोपपत्रस्य विषये विशेष न्यायालयेन अर्यालेन सहिताः सर्वे जनाः मुक्ताः घोषिताः आसन्। अष्टात्रिंशत् कोचीनां, सप्तषष्टिर्लक्षाणां, सप्तदश सहस्राणां च रूप्यकाणां हानिवित्तम् अभियाच्य न्यायालयेन विहितं निर्णयं प्रति असहमतिं प्रकटयता अधिकार दुरूपयोगानुसन्धानायोगेन सर्वोच्च न्यायालये अभियोगपत्रं पञ्जीकारितमस्ति। जलवायु विज्ञान विभागेन जलप्लव सम्बद्धां सूचनाम् इतोऽपि प्रभावपूर्णां विधातुं जनेभ्यः दूरभाषमाध्यमेन सूचना प्रदास्यते। विभागेन एतदर्थं श्रव्यसेवायाः प्रारभणार्थं पूर्वकार्यं विहितमस्ति। जलप्लवस्य आशंकायाम् एतत्पूर्वं दूरभाष सन्देशमाध्यमेन सूचना प्रदीयते स्म, अतः परं विभागेन श्रव्यसेवायाः माध्यमेन पूर्वसूचना सम्प्रेषणस्य व्यवस्था विधीयमाना अस्ति इति विभागस्य जलप्लव विनोद पराजुली असूचयत्। पशुपति क्षेत्र विकास कोषेण हरितालिका पर्वण अवसरे व्रतार्थी महिलानां कृते पशुपतिनाथ मन्दिरस्य बहिक्षेत्रे चतस्रिषु पंक्तिषु आन्तरक्षेत्रे अष्टसु पंक्तिषु च स्थित्वा भगवतः पशुपतिनाथ मन्दिरस्य दर्शनाय व्यवस्था विधास्यते। पाशुपतक्षेत्रे हरितालिका पर्वण अवसरे विहितानां पूर्वकार्याणां विषयं ज्ञापयितुं ह्यः कोषेण आयोजिते पत्रकार सम्मेलने कोषस्य निमित्त सदस्य सचिवः सुभाष चन्द्र जोशी घर्मणः समये दीर्घकालावधि पंक्तौ स्थातुम् असहजता भवतीत्यतः एकघण्टातः सार्धैकघण्टायाः अभ्यन्तरे दर्शनं कृत्वा गृहं प्रत्यावर्तनत्वेन भगवतः पशुपतिनाथस्य दर्शनस्य व्यवस्था विहितास्तीति असूचयत्। अस्मिन् वर्षे हरितालिका पर्व अद्य सोमवासरात् प्रारब्धमस्ति। अद्य व्रतालवः महिलाः मधुरमिष्ठान्नादिनी खादन्ति। श्वः हरितालिका पर्वणः मुख्यदिने निराहारं स्थातुं शक्तेः प्राप्तये हिन्दुमहिलाभिः अद्य मधुरमिष्ठान्नादिनी भुक्त्वा नृत्यं नर्तित्वा पौष्टिकान्नभक्षणस्य परम्परा वर्तते। श्वः भाद्रशुक्ल तृतीया तिथौ हिन्दु महिला उपवास पुरस्सरं हरितालिकायाः व्रतमाचरन्ति। गतार्थिक वर्षे देशस्य आर्थिक वृद्ध्यनुपातः 10.64% आसीदिति अनुमितं वर्तते। गतार्थिक वर्षे मुद्रास्फीतेः अनुपातः 10.04% आसीत्। तत्पूर्वतनार्थिक वर्षे मुद्रास्फीतेरनुपातः 10.44% आसीत्। गतार्थिक वर्षे कृषिक्षेत्रस्य वृद्ध्यनुपातः 10.28%। उद्योगक्षेत्रस्य 10.75%। सेवाक्षेत्रस्य वृद्धिः 10.21% आसीदिति च अनुमितं वर्तते। नेपाल राष्ट्रकोषेण ह्य रविवासरे प्रकाशिते देशस्य वार्षिकार्थिक प्रतिवेदने गतार्थिक वर्षे सम्पूर्ण ग्राहस्थ्योत्पादने कृषि उद्योग सेवा क्षेत्राणाम् अंशभागिता क्रमेण 10.25% 10.83% 10.01% आसीदिति उल्लिखितं वर्तते। इति समाचारः।